ओम नमो भगवते वासुदेवाय। अथैकविंशोऽध्यायः। श्रीशुक उवाच। वितथस्य सुतो मन्युर्बृहत्क्षत्रो जयस्ततः। महावीर्यो नरो गर्गः संकृतिस्तु नरात्मजः। गुरुश्चरन्ति देवश्च संकृतेः पाण्डुनन्दन। रन्ति देवस्य हि यश इहामुत्र च गीयते। वियद्वित्तस्य ददतो लब्धम् लब्धम् बुभुक्षतः। निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः। व्यतीयुरष्टचत्वारिंशद् अहान्यपिबतः किल। वृतपायससंयावम् तोयम् प्रातरुपस्थितम्। कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्रिभ्याम् जातवेपथोः। अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत्। तस्मै संव्यभजत् सोन्नमादृत्य श्रद्धयान्वितः। हरिम् सर्वत्र सम्पश्यन् स भुक्त्वा प्रययौ द्विजः। अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपते। विभक्तम् व्यभजत् तस्मै वृषलाय हरिम् स्मरन्। याते शूद्रे तमन्योगादतिथिः स्वभिरावृतः। राजन्मे दीयतामन्नम् सगणाय बुभुक्षते। सादृत्यावशिष्टम् यद् बहुमानपुरस्कृतम् तच्च दत्त्वा नमश्चक्रे स्वभ्यः स्वपतये विभुः। पानीयमात्रमुच्छेषम् तच्चैकपरितर्पणम्। पाश्यतः पुल्कसोऽभ्यागादपो देह्यशुभस्य मे। तस्य ताम् करुणाम् वाचम् निशम्य विपुलश्रमाम्। कृपया भृशसन्तप्त इदमाहामृतम् वचः। न कामयेऽहम् गतिमीश्वरात्परामष्टर्धियुक्ताम पुनर्भवम् वा। आर्तिम् प्रपद्येऽखिल देहभाजा मन्तःस्थितो येन भवन्त्य दुःखाः। क्षुत्रिश्रमो गात्र परिश्रमश्च दैन्यम् क्लमः शोकविषादमोहाः। सर्वे निवृत्ताः कृपणस्य जन्तोर्जिजीविषोर्जीवजलार्पणान्मे। इति प्रभास्य पानीयम् म्रियमाणः पिपासया। पुल्कसाया ददाद्धीरो निसर्गकरुणो नृपः। तस्य त्रिभुवनाधीशा फलदा फलमिच्छताम्। आत्मानम् दर्शयाञ्चक्रुर्माया विष्णुविनिर्मिताः। स वै तेभ्यो नमस्कृत्य निःसङ्गो विगतस्पृहः। वासुदेवे भगवति भक्त्या चक्रे मनः परम्। ईश्वरालम्बनम् चित्तम् कुर्वतोऽनन्यराधसः। मायागुणमयी राजन् स्वप्नवत् प्रत्यलीयत। तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः अभवन् योगिनः सर्वे नारायणपरायणाः। गर्गाच्छिन्निस्ततो गार्ग्यः क्षत्रात् ब्रह्मय वर्तत। दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः। पुष्करारुणिरित्यत्र ये ब्राह्मणगतिम् गताः। बृहत्क्षत्रस्य पुत्रो भूद्धस्ति यद्धस्तिना पुरम्। अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः। अजमीढस्य वंश्या स्युः प्रियमेधादयो द्विजाः। अजमीढात् बृहदिषुस्तस्य पुत्रो बृहद्धनुः। बृहत्कायस्ततस्तस्य पुत्र आसीत् जयद्रथः। तत्सुतो विशदस्तस्य सेनजित् समजायत। रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः। रुचिराश्वसुतः पारः पृथुसेनस्तदात्मजः। पारस्य तनयो नीपस्तस्य पुत्रशतम् त्वभूत्। सकृत्व्याम् शुककन्यायाम् ब्रह्मदत्तमजीजनत्। स योगी गविभार्यायाम् विश्वक्सेनमधात् सुतम्। जैगीषव्योपदेशेन योगतन्त्रम् चकारः। उदक्स्वनस्ततस्तस्माद् भल्लादो बार्हदीशवाः। यवीनरो द्विमीढस्य कृतिमांस्तत्सुतः स्मृतः। नाम्ना सत्यधृतिर्यस्य दृढनेमि सुपार्श्वकृत्। सुपार्श्वात् सुमतिस्तस्य पुत्र सन्नतिमांस्ततः। कृतिर्हिरण्यनाभात् यो योगम् प्राप्य जगौ स्मसत्। संहिता प्राच्यसाम्नाम् वै नीपो युग्रायुधस्ततः। तस्य क्षेम्य सुवीरोऽथ सुवीरस्य रिपुञ्जयः। ततो बहुरथो नाम पुरुमीढो प्रजोऽभवत्। नलिन्यामजमीढस्य नीलः शान्तिः सुतस्ततः। शान्तेः सुशान्तिस्तत्पुत्रः पुरुजोऽर्कस्ततोऽभवत्। भर्म्याश्वस्तनयस्तस्य पञ्चासन्मुद्गलादयः। यवीनरो बृहदिषुः काम्पिल्यः सञ्जयः सुताः। भर्म्याश्वः प्राह पुत्रा मे पञ्चानाम् रक्षणाय हि। विषयाणामलमिमे इति पञ्चालसङ्गिताः। मुद्गलाद् ब्रह्मनिर्वृत्तम् गोत्रम् मौद्गल्यसङ्गितम्। मिथुनम् मुद्गलाद् भार्म्या दिवो दासः पुमानभूत्। अहल्या कन्यका यस्याम् शतानन्दस्तु गौतमात्। तस्य सत्यधृतिः पुत्रो धनुर्वेद विशारदः शरद्वांस्तत्सुतो यस्मादुर्वशी दर्शनात् किल शरस्तम्बे पतद्रेतो मिथुनम् तदभूच्छुभम् तद्दृष्ट्वा कृपया गृह्णाच्छन्तनुर्मृगयाम् चरन् कृपः कुमारः कन्या च द्रोणपत्न्यभवत् कृपी। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे एकविंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।